सर्वेषां स्वागतं ध्येयमन्त्रेण आरम्भं कुर्मः. अस्तु भगिनि, वदतु.
नमो नमः सर्वेभ्यो. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्. आत्मानम् आहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा, संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्.
नमस्ते भगिनी, ज्योति अस्मि.
स्वागतं भगिनी.
हरि ओम्. श्री गुरुभ्यो नमः. हरि ओम्.
बहु सम्यक्तया उक्तवती भगिनी. धन्यवादः, बहु धन्यवादः.
धन्यवादः.
धन्यवादः. अस्तु, वयम् अग्रे गच्छामः. अद्यतनविषयः अस्ति विशेषणविशेष्यभावः इति. गतवर्गे वयम् उपस्थापनं कृतवन्तः. विशेषणम् इत्युक्ते किं, विशेष्यम् इत्युक्ते किम्?
विशेषणम् इत्युक्ते अड्जेक्टिव्. विशेष्यम् इत्युक्ते नौ.
सम्यक्, सम्यक्. सो साधारणतया स्यूतः इति अस्ति चेत् नामपदमेव, परन्तु नूतनः स्यूतः इति वयं वदामः चेत् एतत् पदं विशेषणं भवति. विशेषणम् अस्ति इति कारणात् एतत् विशेष्यं भवति. विशेषणं विशेष्यं, विशेष्यस्य लिङ्गं वचनं विभक्ति अनुसृत्य विशेषणम् अपि तथा एव भवति. अत्र पुल्लिङ्ग पुल्लिङ्ग, एकवचन एकवचन, प्रथमाविभक्ति प्रथमाविभक्ति, एवमेव अस्ति. वयं सर्वं कृतवन्तः इति चिन्तयामि.
भगिनी,
वदतु भगिनि.
भगिनि, अहं चिन्तयामि. विशेषण मीन्स् सम् एण्ड् विशेष्य मीन्स् समथिङ्ग् इम्पोर्टेण्ट् एक्स्प्लेन् और्
नो. विशेषणम् इस् एक्स्प्लेनिङ्ग्. विशेषणम् इस् एक्स्प्लेनिङ्ग्.
And Visheshya is the things, what is a Visheshya, that explaining, right?
Correct. Samyak, samyak, samyak. Megaha is a noun, okay? So the noun, we cannot change it. Megaha, megaha, ega, pullinga, 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 pullinga. Parantu, neelaha megaha, iti aham, वर्णनं करोमि, मेघस्य वर्णनं करोमि. अतः नीलः इति भवति.
नीलः इस् अ विशेष्य, विशेष्य, राइट्?
विशेषणं,
विशेषणम्. एण्ड् मेघः इस् अ विशेष्य.
शाटिका इति अस्ति चेत् नीला शाटिका इति भवति.
अस्तु भगिनि, धन्यवादः.
नीलं निपता. अस्तु, अन्य प्रश्नः वा? सर्वान् म्यूट् करोमि. अस्तु अस्तु. सो एतत् पर्यन्तं वयं कृतवन्तः खलु गतवर्गे. ओके,
भगिनि,
न वा?
वयं सम्भाषणमेव पठितवन्तः इति अहं चिन्तयामि.
ओ एवं वा, अस्तु.
आं भगिनि,
विशेषः. अस्तु, धन्यवादः. अन्यवर्गे अहं एतत् पर्यन्तं कृतवती अस्तु धन्यवादः सो अत्र अत्र अहं किं वक्तुम् इच्छामि इत्युक्ते अत्र प्रथमाविभक्तिरूपम् अस्ति नूतनः स्यूतः अनन्तरं समीचीना लेखनी स्त्रीलिङ्ग स्त्रीलिङ्ग अपि च ऊरुकं नूतनं सुन्दरम् इति एतानि सर्वाणि बहुवचनम् अत्र द्वितीया विभक्ति एतानि सर्वाणि नूतनां घटीं द्वितीया विभक्तिरूपम् अत्र तृतीया विभक्तिरूपं महता वैभवेन इति अत्र बान्धवान् सर्वान् विभक्ति का अत्र द्वितीया बहुवचनं सर्वैः गृहसदस्यैः तृतीया बहुवचनं सर्वैः गृहसदस्यैः गृहसदस्यैः इति तथा एव भवति परन्तु सर्वैः एव विशेषणम् अस्तु आगतेभ्यः सर्वेभ्यः उपायनं दास्यति चतुर्थी किमर्थं दास्यते इति अस्ति एतत् पञ्चमी अपि भवितुम् अर्हति परन्तु दास्यते इति अस्ति अतः चतुर्थी आगतेभ्यः सर्वेभ्यः दास्यते आगतेभ्यः सर्वेभ्यः स्वीकुर्मः इति अस्ति चेत् पञ्चमी भवति आगतेभ्यः सर्वेभ्यः अस्तु सुदूरात् नगरात्
That's a पञ्चमी
पञ्चमी एकवचनं पञ्चमी एकवचनं विभिन्नेभ्यः नगरेभ्यः आगमिष्यन्ति
पञ्चमी द्विवचनं
बहुवचनं विभिन्नेभ्यः नगरेभ्यः सो अत्रापि समानरूपं परन्तु अत्र दास्यते इति अस्ति अतः चतुर्थी विभक्ति अत्र आगमिष्यति आगमिष्यन्ति इति अस्ति अतः पञ्चमी विभक्ति गृहस्य वैशाल्यम् अत्र सम्यक् नास्ति पार्श्वस्थेषु गृहेषु षष्टि बहुवचनरूपम् अस्तु अग्रे गच्छामः धन्यवादः
अत्र एकः प्रश्नः तपनः अस्तु पश्यामः तावत् तत्र पश्यानि अहं पश्यामि वा इति वक्तुम् एकः रूपः अस्ति खलु
पश्यानि वा
वयं खलु भगिनि
वयं सो दिस् इस् लोट् लकाररूपं सम्यक्
लोट्
लकार
धन्यवादः
सर्वे अवगच्छन्ति वा सा किम् उक्तवती इति साधारणतया वयं पश्यामः इति विसर्गः अस्ति खलु अहं पश्यामि आवां पश्यावः वयं पश्यामः अत्र विसर्गः नास्ति अतः लोट्लकारम् इत्युक्ते लेट्स् गो इति अर्थे अस्ति अहं उदाहरणार्थं भवती पश्यतु भवन्तौ पश्यतां भवन्तः पश्यन्तु त्वं पश्य युवां पश्यत यूयं पश्य अहं पश्यानि आवां पश्याव वयं पश्याम सो रूपं तथा अस्ति अस्तु विशेषः विशेषः इत्युक्ते अत्र सम्भाषणे सारांशः किम् इति अत्र वदति. विशेषणं विशेष्यं च. उत्तमः बालकः इत्यत्र बालके यः विशेषगुणः अस्ति तम् उत्तमः इति पदं सूचयति. बालके बालके विशेषगुणः किम् अस्ति इति उत्तमः इति पदं सूचयति. उत्तमः इति गुणः अस्ति. उदाहरणार्थं बालके चतुरः इति गुणः अस्ति चेत् चतुर इति गुणः अस्ति चेत् चतुरः बालकः इति भवति. सुन्दर इति गुणः अस्ति चेत् सुन्दरः बालकः इति भवति.
भगिनी, सो वाट् इस् द विशेषणेन विशेष्य?
सो विशेष्यम् इस् बालकः.
विशेष्यम् इस् बालकः. ओके, अस्तु भगिनि.
अस्तु. एवं तत् पदम् उत्तमत्वयुक्तः इति अर्थे बोधयति. एतत् पदं विशेषणम्. किं पदं विशेषणम्?
बालकस्य क्वालिटि एक्स्प्लेन्, रैट्?
उत्तमः इति पदं विशेषणम्.
अस्तु भगिनि.
बालकः इति पदं विशेष्यम् अत्र अस्तु. विशेषणविशेषयोः लिङ्गसम्बन्धः अस्ति. एकमेकं पठामः. केतकी भगिनी आरम्भं करोति वा? अस्तु.
आं भगिनि. फ्रोम् वेर्?
फ्रोम् हियर्. विशेषणविशेषयोः लिङ्गभेदः, लिङ्ग सम्बन्धः, भेदः न लिङ्गसम्बन्धः.
विशेषणं विशेषयोः लिङ्गसम्बन्धः. बालकः इति पदं विशेष्यपदम् पुल्लिङ्गे अस्ति, अतः उत्तमः इति पदम् अपि पुल्लिङ्गे. बालकः इत्यस्य स्थाने यदि बालिका इति स्त्रीलिङ्गपदं स्थापयते तदा विशेषणम् उत्तमा इति स्त्रीलिङ्गरूपं प्राप्नोति. पुस्तकम् इति नपुंसकलिङ्गपदं स्थापितं चेत् विशेषणम् उत्तमम् इति नपुंसकलिङ्ग युक्तं भवति.
अस्तु. एतदपि पठतु. उत्तमः.
अतः उत्तमः बालकः पुल्लिङ्गे, उत्तमा बालिका स्त्रीलिङ्गे, उत्तमं पुस्तकं नपुंसकलिङ्गे.
धन्यवादः भगिनि. सो सर्वे अवगच्छन्ति खलु, बालकः पुल्लिङ्गे अतः उत्तमः, बालिका स्त्रीलिङ्गे अस्ति अतः उत्तमा, पुस्तकं नपुंसकलिङ्गम् अतः उत्तमम् इति अस्ति. अस्तु, अग्रे का पठति? एकवारं लिखामि के के सन्ति इति. गोपिका भगिनी अस्ति, मम अम्बा अस्ति, मालती भगिनी अस्ति, सागरी भगिनी, सन्ध्या भगिनी, शारदा, सविता भगिनी, सविता भगिनी, उमाकृष्णन् भगिनी, केतकी अभवत्, ज्योति भगिनी, तावदेव. अस्तु, अग्रे गोपिका भगिनी.
एवं विशेषणानि विशेष्यस्य लिङ्गम् अनुसरन्ति. एवमेव श्रेष्ठसुन्दरसमीचीनचतुर्दीर्घह्रस्वस्थूलकृशादयः शब्दाः अपि. एतत्, तत्, किं, भवत् इत्यादयः सर्वनामशब्दाः अपि विशेषणानि. अतः ते शब्दाः अपि विशेष्यानुगुणं लिङ्गं प्राप्नुवन्ति.
अग्रे अपि पठतु.
उदाहरणं, सः, एषः, कः, भवान्. बालकः पुल्लिङ्गे, सा, एषा, का, भवति, बालिका स्त्रीलिङ्गे तत् एतत् किं पुस्तकं नपुंसकलिङ्गे एकं द्वे त्रीणि इत्यादयः सङ्ख्याः अपि विशेषणानि एव.
अस्तु, सो अत्र विशेषणम् इति पदं किम् इति अग्रे वदन्ति. उदाहरणार्थं
भगिनी, ऐ एम् आल्वेस् लुकिङ्ग् कन्फ्यूस्ड् अबौट् दिस्, इस् इट् भवति और् भवति?
भवति,
भवति. ओके, भवति इस् इस् रैट् टु हाव्.
No, no, actually this is wrong.
That's what I thought. I mean, Bhavati, right?
Yeah, this is Bhavati.
Dirghai.
Dirghai. When you say Tatra Vrishti.
That is Bhavati.
That is Bhavati.
Bhavati. That's what I thought. Okay, thanks.
After. Aham, Dikam Yatra. Take a minute. After. धन्यवादः. सो अत्र वयं जानीमः श्रेष्ठ सुन्दर समीचीन चतुर दीर्घ ह्रस्व स्थूल कृश आदयः शब्दाः अपि विशेषणम् इति. विशेषणम् इत्युक्ते श्रेष्ठ एव मूलरूपं, श्रेष्ठः श्रेष्ठा श्रेष्ठम्, सुन्दरः इट् विल् बिकम् सुन्दरी, सुन्दरः सुन्दरी सुन्दरम्, एवमेव नूतनः नूतना नूतनम्, परन्तु पुरातन अपि सुन्दरी इव पुरातनी इति भवति. अस्तु, एवमेव सर्वनामशब्दाः अपि विशेषणम्. अतः एव बालकः इत्युक्ते सः बालकः, सा बालकः न, सः एषः कः भवान्, सा एषा का भवति, तत् एतत् किम् इति नपुंसकलिङ्गे भवति. एवमेव एकम् एकं द्वे त्रीणि चत्वारि विशेषणानि. अस्तु
भगिनि, इफ् यु कुड् प्लीस् गो बेक् अ लिटल् बिट् स्क्रोल् अप्. कृषादयः इत्युक्ते किं भगिनि?
सो इट् इस् एक्चुलि कृष and then aadayah. Aadayah means starting with this. Aadi, aadi means beginning, which means, which basically means etc.
Okay, okay. Dhanyavad.
Nischayan. So and it is aadayah because it is shabdah, so it becomes the pullinga. Aadayah,
aadi aadayah.
Okay, aadayah, correct. Aadi aadayah, aadayah shabdah. So and then if it is for padani, it will be ityadini. I'll show you some. Kutrapi drishtavati iti panya. Astu, when I come across, I'll show you ityadini padani or ityadayah shabdah iti bhavati. Astu,
dhanyavadah.
Dhanyavadah. Astu, agre amba patitum icchati va amba
bhagini krisha itchuk.
इत्युक्ते कृष इत्युक्ते बिकमिङ्ग् थिन्, स्थूल मीन्स् फेट्. अम्ब पठितुम् इच्छति वा? पठतु.
विशेषेण विशेषस्यो वचनसम्भवन् सम्बन्धः. विशेष्यम् एकवचने अस्ति चेत् विशेषणमपि एकवचने, विशेष्यं बहुवचने अस्ति चेत् विशेषणमपि बहुवचने, विशेष्यं द्विवचने अस्ति चेत् विशेषणमपि द्विवचने. उदाहरणः, एकवचने उत्तमः बालकः, स्त्रीलिङ्गे उत्तमा बालिका, नपुंसकलिङ्गे उत्तमं फलं, बहुवचने उत्तमा बालकाः, स्त्रीलिङ्गे उत्तमाः बालिकाः, नपुंसकलिङ्गे उत्तमानि फलानि.
सम्यक्, अग्रे अपि पठतु. एवमेव
एवमेव पुल्लिङ्गे एकवचने सः बालकः, एषः बालकः कः बालकः बहुवचन ते बालकाः एते बालकाः के बालकाः
बहु सम्यक् बहु सम्यक् अम्ब धन्यवादः सो अत्र पूर्वस्मिन् बिन्दोः अनुसृत्य अत्र वचनं लिङ्गविषये पठितवन्तः वयम् इदानीं वचनविषये एकवचन द्विवचन बहुवचने सर्वे अवगच्छन्ति इति अहं चिन्तयामि खलु एकवचने द्विवचने कथं भवति इति उत्तमा बालिका एकवचने बहुवचने उत्तमाः बालिकाः द्विवचने कथं भवति सा ते ताः
उत्तमौ बालिकौ
बालकौ
उत्तमौ बालकौ
पुल्लिङ्गे उत्तमौ बालकौ स्त्रीलिङ्गे
उत्तमा बालिका
उत्तमे बालिके तथा भवति नपुंसकलिङ्गे उत्तमे फले तथा भवति उत्तमे फले तथा भवति अस्तु एवमेव अग्रे का पठति मालति भगिनि पठति वा स्त्रीलिङ्गे कथं भवति इति
ऐ विल् ट्रै
आम्
सा बालिका एषा बालिका का बालिका
बहुवचने
बहुवचनं ताः बालिकाः एताः बालिकाः का बालिकाः
काः बालिकाः सम्यक्
बालिकाः नपुंसकलिङ्गम् एव तत् फलम् एतत् फलं किं फलम्
उत्तमम् एकवचने तत् फलम् एतत्
एतत् फलं किं फलं
बहुवचने
बहुवचनं तानि फलानि एतानि फलानि कानि फलानि
सम्यक् सो अत्र एकवचने बहुवचने
सा बालिका बहुवचने स्त्रीलिङ्गं देन् नपुंसकलिङ्गं
पूर्वं वयं पुल्लिङ्गे कथं भवति इति पठितवन्तः सः ते धन्यवादः सागरी भगिनी अग्रे
विशेषणविशेषयोः विभक्तिसम्बन्धः विशेषणविशेषयोः लिङ्गसम्बन्धः वचनसम्बन्धः च यथा भवति तथैव विभक्तिसम्बन्धः अपि भवति तन्नाम विशेषस्य या विभक्तिः सा एव विभक्तिः विशेषणस्य यापि भवति
सो एकवारं वदामि विशेषणविशेषयोः वयं पूर्वं पठितवन्तः लिङ्गसम्बन्धः अस्ति इति वचनसम्बन्धः अस्ति इति अपि पठितवन्तः पूर्वम् अत्र च यथा भवति तथा एव अहं म्यूट् करोमि तथा एव विभक्तिसम्बन्धः अपि भवति तन्नाम इत्युक्ते विशेष्यस्य या विभक्तिः अस्ति सा एव विभक्तिः विशेषणस्य अपि भवति इति अस्तु भगिनि सागरि भगिनि अग्रे पठतु
द्वितीया विभक्तिः पुल्लिङ्गे उत्तमं बालकम् श्रीलिङ्गे उत्तमां बालिकां नपुंसकलिङ्गे उत्तमं फलं
फलम्
तृतीया विभक्तिः पुल्लिङ्गे उत्तमेन बालकेन श्रीलिङ्गे उत्तमाय सोरि उत्तम उत्तमय उत्तमया बालिकया उत्तमेन फलेन षष्ठी विभक्तिः पुल्लिङ्गे उत्तमस्य बालकस्य श्रीलिङ्गे उत्तमाय उत्तमायाः बालिकायाः नपुंसकलिङ्गे उत्तमस्य फलस्य
अवगच्छन्ति खलु सर्वे द्वितीया विभक्ति रूपम् एवम् अस्ति बालकम् इति अस्ति अतः उत्तमम् अपि तथा एव बालकस्य इति अस्ति चेत् उत्तमस्य अपि एवमेव स्त्रीलिङ्गे उत्तमायाः उत्तमस्य उत्तमेन उत्तमया इति भवति अस्तु सन्ध्या भगिनी
आं भगिनि
एवं
च सिद्धं यत् विशेषणविशेष्ययोः नम्बर् वन् लिङ्गसम्बन्धः भवति टु वचनसम्बन्धः भवति त्रि विभक्तिसम्बन्धः भवति यथा सम्बन्धः लिङ्गं वचनं विभक्तिः सर्वान् बान्धवान्
सर्वान् बान्धवान् इति पुल्लिङ्गपदं पुल्लिङ्ग बहुवचन द्वितीया विभक्ति
द्वितीया विभक्ति
नूतनान्
घटीन् स्त्रीलिङ्ग एकवचन द्वितीया विभक्ति सर्वैः गृहसदस्यैः पुल्लिङ्ग बहुवचन तृतीया विभक्ति
सम्यक् बहु सम्यक् अस्ति खलु
वेरि नैस् भगिनी
ब्यूटिफुल् ब्यूटिफुल्
ब्यूटिफुल्
सो दिस् इस् सो एतत् सो अहं वक्तुम् इच्छामि इत्युक्ते एषः अंशः एव सुन्दरं संस्कृतम् इति वक्तुम् अवकाशः ददाति खलु अस्तु सो अत्र शारदा भगिनी वदतु सुदूरात् नगरात्
सुदूरात् नगरात् नपुंसकलिङ्गे एकवचनं पञ्चमी विभक्तिः
सम्यक्
एतस्य गृहस्य नपुंसकलिङ्गशब्दः एकवचनं षष्ठी विभक्तिः
सम्यक्
पार्श्वस्थेषु गृहेषु नपुंसकलिङ्गशब्दः बहुवचनं सप्तमी विभक्तिः
सम्यक् भगिनि
विशेषणविशेष्ययोः त्रिविधसम्बन्धम् एषः श्लोकः ज्ञापयति यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि विशेषणस्य अपि
धन्यवादः भगिनि सो अत्र किं वदामि सन्धिका कार्यम् अस्ति अत्र यल्लिङ्गम् इत्युक्ते यत् लिङ्गं यत् यत् वचनं यल् यत् लिङ्गं यत् वचनं या विभक्तिः स्त्रीलिङ्गे अस्ति अतः या लिङ्गं वचनं नपुंसकलिङ्गम् अतः यत् यत् लिङ्गं यत् वचनं या विभक्तिः विशेष्यस्य अस्ति तत् लिङ्गं तत् वचनं सा विभक्तिः विशेषणस्य अपि भवति इति एषः श्लोकः ज्ञापयति ज्ञापयति इत्युक्ते इट् विल् हेव् एस् नो इति सो दिस् इस् अ निच् प्रयोगः निश्चे पठति पाठयति लिखति लेखयति सो जानाति ज्ञापयति अवगच्छन्ति खलु आम् इति मन्ये अस्तु सविता भगिनी अभवत् खलु इदानीमेव?
आं भगिनि, आम् उपस्थ
धन्यवादः भगिनि. उमा भगिनि,
No, I haven't read, Bhagini.
Oh, you haven't read. Astu.
Yeah, yeah, I haven't.
Oh. Astu, Bhagini. Savita, Bhagini, patatu.
Aam, Bhagini.
Ah.
Adah, Suchitanam, Visheheyanam, Linga, Bachana, Vibhakti, Vibhaktya, Anugunam, Vibhaktya, Anugunam, Uttama Shabdasya, Uchitaihi, Rupaihi, रिक्तस्थानानि पूरयत.
सो एकनिमिषम्, अत्र विभक्ति अनुगुणम् इति अस्ति.
विभक्ति अनुगुणं,
सो सो अत्र सन्धि कृत्वा सो विभक्ति अनु अनुगुणं, सो इट् बिकम् विभक्ति अनुगुणं. अस्तु अस्तु.
उदाहरणं बालकम्, उत्तमं बालकम्.
उत्तमं बालकम् इति अस्ति, इति अस्ति. अस्तु, भवती पदद्वयं करोतु. बालकान् इति अस्ति, प्रथमं बालकान् इति
द्वितीय
बहुवचन, पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसक, पुल्लिङ्ग, उत्तम
पुल्लिङ्ग, बालकः, बालकौ, बालकः, बालकं, बालकौ, बालकान्,
बालकान्, उत्तम. इदानीं कथं कथं भवति उत्तम इति शब्दः कथं भवति?
उत्तमम्, उत्तमे,
नो, इट् हेज़् द सेम् एण्डिङ्ग्.
उत्तमान् बालकान्,
उत्तमान् बालकान्,
बालकान्, उत्तमान् बालकान्,
उत्तमान् बालकान्, गृहिणी,
उत्तमी गृहिणी.
सो अत्र अपि ऐ थिङ्क्
उत्तमा
मुद्रणदोष दोष खलु, गृहिणी इति.
भगिनि, गृहाणि,
ओ गृहाणि, अस्तु, धन्यवादः. गृहाणि, अस्तु,
गृहाणि,
गृहाणि कथं भवति?
उत्तमानि गृहाणि,
उत्तमानि गृहाणि, सम्यक् सम्यक्. अस्तु, उमा कृष्णन् भगिनि, लेखन्यः जन
का पुल्लिङ्ग वा श्रीलिङ्ग वा, केन् वि जस्ट् से इट् फोर् ईच् वर्ड् सो देट् वि गेट् अ प्राक्टिस्.
आमाम्, निश्चयेन. सो गृहिणी इति वदतु भगिनि.
गृहिणी, सोरि,
सो अत्र गृहं खलु, गृहं,
गृहं,
गृहम् इति एकवचनं, गृहाणि बहुवचनं,
उत्तमानि गृहाणि,
उत्तमानि गृहाणि, सम्यक्, उत्तमानि गृहाणि, नपुंसकलिङ्ग बहुवचनं, प्रथमाविभक्ति वा द्वितीयाविभक्ति वा द्वे अपि वा?
It is
Dwe, right? Yeah, it could
Dwe.
Be both.
Dwe. Should I do the next one?
Bhagini. Uma Krishnan Bhagini, yeah, you do both. Lekanyah apicha janai.
I have to use the word uttamam only or any?
Uttamam only. Prathamam, lekanyah iti padasya विवरणं करोतु. उदाहरणार्थं पुल्लिङ्गं वा स्त्रीलिङ्गं वा लिङ्गवचनविभक्ति.
लेखन्यः स्त्रीलिङ्ग, स्त्रीलिङ्गपदं, बहुवचनं,
बहुवचनम्, उत्तमं, विभक्ति,
कन्यः.
So actually if you use it in a sentence it will be good.
Sorry,
lekhani asti, lekanyah,
lekanyah santi.
लेखन्यः सन्ति. सो अतः विभक्तिका अत्र अस्ति सन्ति इति अस्ति चेत् वाक्ये निश्चयेन प्रथमाविभक्तिरूपम्
विभक्ति प्रथमा विभक्ति. सो लेखन्यः
उत्तमाः लेखन्यः. सम्यक्, उत्तमाः लेखन्यः.
उत्तमाः लेखन्यः,
उत्तमाः लेखन्यः. इदानीं जनैः,
जनाः प्रथमाविभक्ति. जनः
प्रथमाविभक्ति. सम्यक्, अत्र जनैः इति अस्ति.
जनैः
जनः, जनौ जनाः, जनं जनौ जनान्, जनेन जनाभ्यां जनैः.
पञ्चमी
तृतीया. जनेन जनाभ्यां जनैः
तृतीया.
अतः उत्तम इति पदं कथं भवति?
उत्तमै,
उत्तमैः. सम्यक्, उत्तमैः जनैः. उत्तमैः जनैः. सम्यक् भगिनि, उत्तमैः जनैः.
Bhagini, I have a doubt. How would we know whether it is the visheshanam is putlinga or napunsaklinga? How do we know it's uttamaha or uttamam, Bhagini?
We do not know.
Okay. So uttama itself, the lingam is unknown, is it?
Unknown. Correct.
Okay. Dhanyavada.
Dhanyavada. Astu, agre Jyoti Bhagini.
Bhagini.
Janeshu Nagarat iti padma.
Janeshu Nagarat. जनेषु नगरात् भगिनि.
प्रथमं जनेषु इति वदतु.
ओके,
लिङ्गवचन विभक्ति
जनेषु. जनेषु.
अत्र जने इति विभक्ति का?
चतुर्थी विभक्ति.
एकनिमिष, अत्र दर्शयामि. सो अत्र पुल्लिङ्गे
सप्तमी विभक्ति भगिनि.
सप्तमी विभक्ति, अस्तु. जनेषु. सो अत्र उत्तम इति पदं कथं भवति इदानीम्?
उत्तमौ.
सो अत्र जनेषु इति अस्ति.
उत्तमौ जनेषु.
नो, इट् हेस् टु बी द सेम्. जनेषु इति अस्ति चेत्
उत्तमेषु.
सम्यक्, उत्तमेषु जनेषु. सम्यक्,
उत्तमेषु जनेषु.
उत्तमेषु जनेषु. इदानीं नगरात्
उत्तमात् नगरात्.
सम्यक्, उत्तमात् नगरात्. इदानीं नगरम् इति नपुंसकलिङ्गपदम्
भगिनि,
अतः विभक्तिका नगरात्
पञ्चमी विभक्ति.
पञ्चमी विभक्ति एकवचनम्.
पञ्चमी विभक्ति एकवचनं
सम्यक् नगरात् उत्तमात् नगरात्
भगिनी ऐ एम् सोरि ऐ एम् गोयिङ्ग् बेक् लैक् अ ब्रोकन् रेकार्ड् बट् प्लीस् बेर् वित् मी
नो प्रोब्लम् ऐ एम् श्योर् एव्रीबडि हास् द सेम् क्वश्चन् अस्तु
नौ वी नो दट् उत्तमा इस् वि डोण्ट् प्री डिसैड् द लिङ्गा फार् उत्तमा रैट् सो बट् the problem in my mind arises if it is a word like lekhani so instead of uttama if it had been sundara it would have said sundari sundarya is it but then that inherently means that sundaram becomes sundari whereas uttama does not become uttami
correct
how do we figure out whether
so for right now there are only two visheshanams that are like that bagini sundara okay. is like that and also puratana is like that all the others are only a ending for three only for sundara and puratana it will become puratani sundari like that
okay thank you so much and therefore while in all the other cases it almost rhymes that is the visheshana and the visheshya rhyming in the case of strilinga with ikara anta padam it will not
correct correct
and would there be exceptions for other shabdams like matra pitra and all of that bhagini those will be different is it
it will come later it will be
At that time it doesn't match again is it Bhagini I mean
it will not match correct
okay dhanyawad
bahu dhanyawad astu
samitam internet madhye kleshah asit so
evam ba bhagini
agatavati bhagini
uttamam bhagini astu anya copy asti va या अथवा यः न उक्तवान् उक्तवती नास्ति इति मन्ये अस्तु केतकी भगिनि
सेवेन् भगिनि
बालिकाभिः प्रथमं वदतु वचन लिङ्गविभक्ति बालिकाभिः
बालिकाभिः स्त्रीलिङ्ग् तृतीयविभक्ति बहुवचन
सम्यक् बालिकाभिः सम्यक्
उत्तमाभिः उत्तमाभिः बालिकाभिः
सो अत्र केन् वी स्टार्ट् मेकिङ्ग् सेण्टेन्सेस् वाक्यं रचयामः बालिकाभिः उत्तमाभिः बालिकाभिः सः किं करोति
उत्तमाभिः बालिकाभिः सः पठति
अन्यबालिका पठति अस्तु अथवा अहं पठामि अस्तु
उत्तमस्य बालकस्य बालकस्य षष्ठी प्रथमा उत्तमस्य षष्ठी प्रथमा
षष्ठी एकवचनं
षष्ठी एकवचनं प्रथमा एकवचनं सोरि
प्रथमा न प्रथमा विभक्ति परन्तु षष्ठी विभक्ति एकवचनं सम्यक्
एकवचनं पुल्लिङ्ग
सम्यक्
उत्तमस्य बालकस्य
नाम
उत्तमस्य बालकस्य नाम रमेशः अस्ति
उत्तमं
धन्यवादः
धन्यवादः Gopika, I'm very happy, Bhagini. Gopika, Bhagini, agree.
Bhagini, everything is because of you. Otherwise,
No, don't say that. It's all your hard work, Bhagini. I'm very happy. Astu.
But Bhagini, you show me the line.
Okay, astu. Gopika, Bhagini. Dhanyavada. Puttake.
I'm Bhagini. लिङ्गं वचनं विभक्तिः पुल्लिङ्गम् एकवचनं सप्तमी विभक्तिः
उत्तमे पुस्तके सा
ज्ञानम्
उत्तमे पुस्तके सा वाट् टु से फार् उत्तमः हेण्ड् रैटिङ्ग्
सारी टु इण्टरप्ट् बट् पुस्तकम् इसन्ट् इट् नपुंसकलिङ्गम्
Yeah, I think she said Napum Sakalingam. Hello?
Did she say Pullingam? Sorry, maybe I didn't hear it properly. I'm sorry.
Samyadam Vagini. Napum Sakalingam.
You said, you did say Pullingam, right?
I think I said Pullingam.
Yeah. That's what I got. Then I got confused. Because Gopika is saying it, I got confused.
Yeah.
Sorry, Vagini. I do make mistakes.
I heard it as Napum Sakalingam.
In fact, whenever Gopika Bhagini speaks, I'm just so stunned. I mean, how do you speak so fluently, Gopika Bhagini?
I'm also amazed, Bhagini. Yeah, I'm also amazed.
I mean, both of you, I don't know how many years of effort it has taken you both to speak like this,
From,
Bhagini.
2019, Bhagini. 1 year.
Oh, that's super fast.
Yeah, very amazing. Amazing girl.
Bhagini, she is a young, so what we expect, she has to learn. And she is from South India, so we cannot see anything else.
Astu.
Sa lekhanam karoti.
उत्तमे पुस्तके सा लेखनं करोति
सम्यक्
सो पुस्तके देन् बिकम्स् द्विवचनम् इसन्ट् इट् नपुंसकलिङ्गम्
नो इट् इस् या उत्तमप्रश्नः इट् कुड् बि it could be dvivachanam or it could be saptami vibhakti ekavachanam. Here we are thinking saptami vibhakti ekavachanam.
Okay, otherwise it would be napumsakalingam, dvivachanam, ekavachanam or dvivachanam, right? Pustake.
Samyak. Satyam.
But here we are taking it as saptami.
Saptami,
Astupati.
But how can it be ekavachanam and dvivachanam? I didn't understand.
Yeah. Pustakam, pustake, pustakani. Pustakam, pustake,
pustakam. No, pustakam is ekavachanam.
Pustake, staha.
Pustake is dvivachanam. Okay.
Pustake, staha. Pustake, svikaroto.
No, I misunderstood. I was thinking like pustake... It cannot be two, like ekavachanam and dvivachanam.
Got it. Astu.
Sorry, I made a mistake. I meant prathama vibhakti or dvitiya vibhakti. That's what I meant. But I said ekavachanam.
Okay. See, you are saying ekavachanam, dvivachanam. I understood as prathama vibhakti, dvitiya vibhakti. That's how it is. We understand what we want to understand. Astu. अस्तु अग्रे धन्यवादः कथां
स्त्रीलिङ्गं द्वि न एकवचनं द्वितीयविभक्तिः उत्तमां कथां सा कथं कथनं करोति
सम्यक् गोपिका इस् is known for bringing out rhyming words. my head spins, but you know, she does like Samyak. Astu.
Amba. Dhanyavada Bhagini. Gopika.
Amba Ativa Hridayeshu. Hridayam Hridayeshu. लिङ्गवचन विभक्ति हृदयं मूल
नपुंसकलिङ्गं
हृदयेषु
सप्तमी
सप्तमी विभक्ति
उत्तमी
सप्तमी विभक्ति वचनं किम् एकवचनं वा बहुवचनं वा
बहुवचनं
बहुवचनं हृदयेषु अस्तु उत्तमशब्द कथं भवति
उत्तमेषु उत्तमेषु हृदयेषु
उत्तमेषु हृदयेषु उत्तमचिन्तनम् अस्ति वा दुश्चिन्तनम् अस्ति वा उत्तमेषु हृदयेषु उत्तमेषु हृदयेषु किम् अस्ति किं भवति
नश्चिन्तने
नश्चिन्तने उत्तमचिन्तनं भवति
उत्तमचिन्तनं भवति
उत्तमचिन्तनं भवति सम्यक् अस्तु वरुणेन वरुणः वरुणेन वरुणः पुल्लिङ्ग वर्णः कः वर्णः पुल्लिङ्गशब्दः तृतीया विभक्ति वचनं एकवचनं वा बहुवचनं वा
एकवचनं
एकवचनं वर्णेन अस्तु उत्तमशब्दं योजयतु इदानीम्
उत्तमेन वर्णेन
किं करोति उत्तमेन वर्णेन चित्रं लिखति वा शाटिकायां
उत्तमेन वर्णेन
शाटिकायां अलङ्कारं करोति वा चित्रं लिखति वा किं करोति उत्तमेन वर्णेन
अलङ्कारं करोमि
अलङ्कारं करोमि उत्तमम् उत्तमम् अम्ब धन्यवादः मालती भगिनी कार्यं नपुंसकलिङ्गम् उत्तमं
नपुंसकलिङ्गं कार्यैः इस् बहुवचनं
बहुवचनं विभक्ति
विभक्ति That's a big question.
Astu, chinta mastu.
Karyai.
So this is how we...
Karyai hi, chaturthi vibhakti.
Na. Chaturthi na. Oh, awesome.
Oh, no? Okay. Karyam, karyai.
Kutra asti. Nampum sakalenga. Eka nimsham bhagini. Anveshanam karomi. Astu, atra. कार्यैः
तृतीया विभक्ति
तृतीया विभक्ति वचनं किम् एकवचनं वा बहुवचनं वा कार्यैः
बहुवचनं
कार्यैः सो अत्र नपुंसकलिङ्ग तृतीया बहुवचनम् अस्तु उत्तमशब्द योजयतु अत्र
उत्तम उत्तमकार्यैः उत्तमैः
कार्यैः
कुर्वन्तु
उत्तमैः कार्यैः इत्युक्ते बै डूयिङ्ग् गुड् जाब् वाट् हेपन्स् उत्तमैः कार्यैः
उत्तमैः कार्यैः
सः अथवा अहं बिकम्स् हि गेट्स् फेम् बै डूयिङ्ग् अहम् उत्तमैः कार्यैः पुण्यम् अथवा
पुण्यं पुण्यं
वदतु उत्तमैः कार्यैः
पुण्यं
Proper.
Very difficult for me to sentences.
it's okay, Bhagina. I'm you know, we can do it together. Uttamaihi karyaihi
punya
prapnomi.
Prapnomi.
By doing by doing good karyam, I get punya. Uttamaihi karyaihi punyam prapnomi.
Prapnomi.
Samyak. Astu. Mala bihi.
मालाभिः इस् बहुवचनं माला इस् स्त्रीलिङ्गं रै
स्त्रीलिङ्गबहुवचनं
मालाभिः इस् तृतीयाविभक्ति
तृतीयाविभक्ति सम्यक् अस्तु
मालाभिः उत्तमैः मालाभिः
हियर् इट् इस् उत्तमैः कार्यैः बिकास् इट् हेस् टु रैम्
उत्तमाभिः
उत्तमाभिः
उत्तमाभिः मालाभिः
किं करोति उत्तमाभिः मालाभिः
मालाभिः I'm thinking of garland for the god
uttam I was thinking the same thing too bagini
uttamaabhih malaabhih bhagavan te that's so how I am not able to
उत्तमाभिः मालाभिः देवं
देवम् अर्चयामि
अर्चयामि उत्तमं देवम्
अर्चयामि
देवं पूजयामि देवं करोमि उत्तमं भगिनि धन्यवादः अग्रे सागरि भगिनि
आं भगिनि गृहिणी नाम श्रीलिङ्गम् बहुवचनं षष्टिविभक्ति
अस्तु गृहिण्याः गृहिण्योः गृहिणीनाम् अस्तु
गृहिणीनां कार्यं I want to say never gets over na samapayati
samapayanti
is that correct
na samapayanti parantu uttama iti api yojayati
uttamanam grihininam karyani na samapayanti then chanchikayah shrilingam ekavachanam I think this can be both panchami and shashti sanchika itukte kim bagini
sanchika itukte file athava folder
उत्तमयाः सञ्चिकायाः
उत्तमायाः खलु
उत्तमायाः सञ्चिकायाः पत्रं स्वीकरोतु
सम्यक् पत्रं स्वीकरोतु अस्तु सो अत्र भगिनी गृहिणीनाम् उत्तमानां गृहिणीनां कार्यं न समापयन्ति इत्युक्ते दे विल् नाट् स्टाप् iti artha kalo samapayati. So that is to stop to complete is samapanam.
So how do you say then it never finishes, their work never finishes, right? Like that.
So, uttamanam grihininam karyani samapanam na bhavati.
Artha kalo
na bhavanti, karyani. धन्यवाद अस्तु अग्रे सन्ध्या भगिनि सन्ध्या भगिनि
भगिनि सारि सारि भगिनि
चिन्ता
शाटिकायाः स्त्रीलिङ्ग षष्टि एकवचनं पञ्चमी षष्टि एकवचनं स्त्रीलिङ्गः उत्तमायाः शाटिकायाः वर्णं श्वेतः अस्ति
वर्णः श्वेतः
अस्ति
उत्तमम् अस्तु अग्रे
वाक्यानि नपुंसकलिङ्ग ऐदर् प्रथम और् द्वितीया बहुवचनं उत्तमानि वाक्यानि उत्तमं जनाः वदन्ति
सम्यक् सो जनाः इस् बहुवचनं सो अतः
वदन्ति
उत्तमाः जनाः
ओके 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 उत्तमाः जनाः वदन्ति यस् 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 थेङ्क्स् फार् पोयिण्टिङ्ग् देट् भगिनि
वेरि यूस्फुल् ऐ मेक् मिस्टेक्स् आल् द टैम् सो कन्नडभाषेषु विशेषणविशेषभावः नास्ति इति अस्ति अस्तु सो अत्र टिप्पणी अस्ति आङ्ग्ल हिन्दी कन्नडादीषु भाषासु विशेषणविशेषयोः लिङ्गसम्बन्धमात्रं क्वचित् दृश्यते इत्युक्ते न सर्वत्र वचनसम्बन्धविभक्तिसम्बन्धः च संस्कृतभाषायाम् एव दृश्यते न अन्यासु भाषासु वचनसम्बन्ध ओके लिङ्गसम्बन्धः अस्ति अन्यभाषासु परन्तु संस्कृते लिङ्गवचनविभक्ति सर्वम् अस्ति इति अस्ति अस्तु अग्रिम अभ्यासः एवम् अस्ति अधः कानिचन विशेषणानि सन्ति निर्दिष्टानि
भगिनि देयर इज ऐ थिंक वी लेफ्ट वन भगिनि ग्रामेषु एंड व्यञ्जनेन
धन्यवादः शारदा भगिनि धन्यवादः भगिनि
आं भगिनि ग्रामेषु ग्रामं नपुंसकलिङ्गशब्दं
शब्दः
ग्रामेषु सप्तमी विभक्ति बहुवचनं उत्तमेषु ग्रामेषु सर्वे जनाः वासं कर्तुम् इच्छन्ति
सम्यक् बहु सम्यक्
व्यजनं नपुंसकलिङ्गशब्दः तृतीयाविभक्ति एकवचनं उत्तमेन व्यजनेन प्रकोष्ठः ऐ डोण्ट् नो भगिनि हौ टु से कूल् टौन् गुड् फ्रेन्
प्रकोष्ठः प्रकोष्ठस्य उष्णं गच्छति
ओके उत्तमेन व्यजनेन प्रकोष्ठस्य उष्णं गच्छति ओके धन्यवादः
प्रकोष्ठः अनुकूलः भवति इट् बिकम्स् बेरबल् लैक् दट् अनुकूलः भवति सो यु केन् से इन् सो मेनी वेस् उत्तमं बहु उत्तमं धन्यवादः सन्ध्या भगिनी फार् पायिण्टिङ्ग् औट् अस्तु अत्र अधः कानिचन विशेषणानि निर्दिष्टानि सन्ति. विशेषणस्य लिङ्गं वचनं विभक्तिं च मनसि स्थापयित्वा योग्येन विशेष्येन रिक्तस्थानानि पूरयत. इत्युक्ते अत्र विशेष्यम् अस्ति ग्रामेषु इति, विशेषणम् अपि अस्ति उत्तम इति. परन्तु अत्र किम् अस्ति, विशेष्यम् अस्ति, विशेषणम् अस्ति. वयं विशेष्यं योजयित्वा लेखनीयं. ताम् इति अस्ति, बालिकाम् इति उदाहरणे अस्ति, एवमेव केन इति अस्ति हस्तेन. वयम् अन्यपदमपि योजयित्वा वक्तुं शक्नुमः. उदाहरणार्थं ताम् इति अस्ति चेत् अन्यपदं किम्? तां महिलां, तां छात्रां, तां लेखनीं ददातु, तां लेखनीं स्वीकरोतु, तां लेखनीं क्रीणामि, क्रेतुम् इच्छामि इति. केन हस्तेन, केन दण्डेन ताडयति, केन कार्यानेन गच्छति इति. अस्तु, सविता भगिनी.
भगिनी प्रश्नः, क्षम्यताम्. सो इन् द सेण्टेन्स् अधः कानिचन विशेषणानि निर्दिष्टानि सन्ति. विशेषणानि इस्
adjective.
Nirdishtani is a noun, va?
No. Nirdishtani means it is shown, it is indicated like that.
Nirdishtani is visheshanam va, visheshyam va, bhagini? I thought it is vishesh.
You are talking about in this sentence, va?
Ma'am, satya.
Astu. In this sentence, it is visheshanam.
Nirdishtani.
Yes, nirdishtani is the visheshanam. Visheshanani is the visheshyam.
So, visheshanam depends on visheshyam.
Visheshanam depends on visheshyam.
Bhagini, yeah. I thought nirdishtani is a verb, right?
No. Santi is the verb here.
Nirdishtani, I thought is placed. It's not that way, is it?
This is a very good question.
Been placed. So I thought maybe it's like an adverb. So it becomes visheshanani, nirdishtani.
No, this is a ta pratyaya. Udaharanartham, patram, if I say patram, I say agatam. Let's say patram agatam. Ekanimsham. Aham, kutra dvanihi asti iti sashyam. Kutra pinasti, astu. Astu, atra patram agatam iti asti. Patrani agatani. So this is how it is here. Visheshanam nirdishtam asti. Patram agatam asti.
Okay.
Patram agatam asti. Patrani agatani santi. So this is not a verb. Although it indicates the meaning of a verb, like agatavan asti, saha agatavan asti, te agatavantah santi. But agatavantah is tavatu pratyaya, tavatu. So without the van, it is agata eva. It's not agatavan, it is agata. Same thing, nirdishta. So it is not a word. It is only a noun, only a nama padam. avagachanti
bhagini. Okay bhagini. little complicated, but yeah, I think it's so clear.
Yeah, so it looks like a verb, but it is not a verb. Like agatavan, it looks like a verb. Like saha agatavan, where is the verb? Agatavan, no. Agatavan is, it describes the saha.
No, but like Gopika Bhagini just pointed out, here visheshanani becomes the noun. Right?
Ah, visheshyam, yes, correct. Samyak.
Okay, okay.
Although visheshana, so visheshanani is the visheshyam atra. And then
okay. Nirdishtani
became the visheshanam.
Visheshanani is visheshyam kalu bhagini.
Ah, visheshyam.
Right.
And then nirdishtani became the visheshanam of the visheshanani padam. Okay, samyak.
Dhanyavadah bhagini avagata.
Dhanyavadah bhagini.
So visheshana nirdishtani describes visheshanani.
Atra. So we can say adaha kanichana visheshanani santi. So nirdishtani means it explains visheshanam nirdishtani santi. It is given below like that.
And the kanichana also has to match, right?
Nischena. Nischena. Kani.
Kani.
Why is it kani? Visheshanam nirdishtam napumsakalingam bahuvachanam visheshanani nirdishtani ataha kani. If it is visheshanam nirdishtam asti, it will become
kashchana
kin kim kalu kim.
Kinchana, is it?
Kinchana.
Okay.
It will become kinchana.
Okay.
It's a little bit complex, but...
But when you say kinchana, Bhagini, you're assuming that visheshanam is napumsakalinga.
Yes.
Okay.
If it is a kaschana...
It has to be a purlinga, right?
Purlinga. Kachana, strilinga. Kinchana, napumsakalinga.
Dhanyavada Bhagini. Thank you so much.
Adhikani Vishyani Santi Bhagini. Ekasmin Vakye Bahavah Vishyaha Santi.
Ekasmin Vakye. Look at this. Astu. Visheshanasya Lingam Vachanam Vibhaktim Manasi Stapayitva. Manasi Stapayitva. Yogyena Visheshyena Vittasthanani Purayata. So atra tam iti visheshanam va visheshyam va visheshanam
yam
visheshanam shanam. So atra tam iti asti chet balikam iti vaktum shaknumah mahilam malam kimapi vaktum shaknumah kena evameva atra api napumsakalinga pullinge ekavachane hastena vimanena karyanena iti vaktum shaknumah. Astu arambam kurmah va atra savita
am bhagini
vadatu taya
iti taya anujaya saha apanam gatavati.
Wow, uttamam bhagini. Vibhakti rupam api vadattu. Linga vachanam.
Taya is tritiya eka vachanam.
Tritiya eka vachana stri linga. Astu, samya. Kam.
Okay, kam. Dvitiya eka vachanam.
Pullingam va, stri lingam va, napum sakalingam va.
Pullinga bhagini.
Pullinga, uttamam bhagini.
Kaha kauke kam kaukan. Kam karyanam. कं कार्यानं
कार्यानम् इस् नपुंसकलिङ्गं खलु सो
लिङ्गं दिस् इस् कः करे करे कः कौके
पदं स्वीकरोतु
पुत्रं पुत्रं कं पुत्रं करेक्ट्
हा करेक्ट्
कं बट् सेण्टेन्स् हेव् टु मेक्
Yeah, what do you want to do with the putram, like for Dvitiya Vibhakti, if it is a person, Vyaktihi iti asti chet, Pashyami, Vadami iti, Vastu asti chet, Svikaromi, Dadami, Ichchami, Kreenami, Kshipami.
भगिनी ददामि अस्ति चेत् चतुर्थी भवति खलु
चतुर्थी एव भवति ददामि इति क्रियापदम् अस्ति चेत् अस्तु भगिनि सविता भगिनी
आं भगिनि कं पुत्रं वत्सले डैरेक्ट् वर्ड् ऐ एम् नाट् गेटिङ्ग् कं पुत्रं
वदति
कं पुत्रं वदति ओके
कं पुत्रम् इच्छति कं पुत्रं
पश्यति कं पुत्रं पश्यति
कं पुत्रं पश्यति बिकास् इट् इस् क इट् इस् क्वश्चन् कं पुत्रं पश्यति धन्यवादः
आं भगिनि
उमाकृष्णन् भगिनि
आं भगिनि
केषु
केषु सप्तमी
सम्यक् सप्तमी बहुवचनं
केषु गृहेषु
केषु गृहेषु सम्यक्
वाक्यानि
सो वाट् इस् द अर्थं
गृहेषु गृहेषु I am not able to get the sentence.
It's okay, Bhagini. Once you understand the artha, it comes, right? In which houses?
Which houses? In which houses the lamps are lit or something?
Keshu griheshu? दीपाः सम्यक् केषु गृहेषु दीपाः
सन्ति
ज्वलन्ति द लेम्प्स् आर् लिट् खलु केषु गृहेषु दीपाः ज्वलन्ति सम्यक् भगिनि अस्तु अग्रे सर्वैः
सर्वैः तृतीया
बहुवचनं सर्वैः
सर्वैः जनैः
सर्वैः जनैः सह
सर्वैः जनैः सर्व गृहे सर्वगृहे दे वेण्ट् सो गतवन्तः
गतवन्तः सर्वैः जनैः सह ते गतवन्तः सम्यक् दे वेण्ट् वित् आल् द पीपल् सर्वैः जनैः सह ते गतवन्तः सम्यक् धन्यवादः ज्योति भगिनी एतया
आं भगिनि एतया इस् स्त्रीलिङ्गशब्द चतुर्थी विभक्ति स्त्रीलिङ्ग
तृतीया विभक्ति
सारी सारी तृतीया विभक्ति स्त्रीलिङ्गशब्द एतया
वचनं किम् एकवचनं वा बहुवचनं वा
एकवचनं स्त्रीलिङ्गशब्द तृतीया विभक्ति एकवचनं
सम्यक्
एतया सह अहं नो एतया
Yeah, so you can add one more noun. Etaya, Balikayava, Mahilayava.
Okay. Etaya, Sakyaha.
Sakya. Sakhi, Sakya.
Sakya. एतया सख्या मम प्रिया अस्ति.
न, एतया सख्या सह,
एतया सख्या सह अहं पठामि.
पठामि.
एतया सख्या सह अहं पठामि.
प्रश्नः, एतया केन् बि यूस् अ प्रापर् नौन् रमया सह.
एतया रमया सह विद्दिस् रमा. एतया रमया सह
सम्यक् वा?
सम्यक् एव. अस्तु अग्रे
भगिनी नपुंसकलिङ्ग
सर्वान् इति पुल्लिङ्गशब्दः. सर्वान्
ओके सर्वां नपुंसकलिङ्गशब्दः अपि अस्ति चेत् अस्ति
अस्ति चेत् सर्वाणि इति भवति.
सर्वाणि सर्वं
अस्ति वा नास्ति? अस्तु अत्र सर्व इति अस्ति वा इति दृष्टवती नास्ति इति मन्ये. अस्तु तर्हि सर्वान् इति पुल्लिङ्गशब्दः.
ओके सर्वान् पुल्लिङ्गशब्द भगिनि.
आम् पुल्लिङ्गशब्द पुल्लिङ्गद्वितीय बहुवचनं.
सर्वान् शब्दः पुल्लिङ्गशब्दः द्वितीयविभक्ति बहुवचन. सर्वान् हौ टु प्रिण्ट् सेण्टेन्स् सर्वान् एव्रिथिङ्ग् नो भगिनि
सर्वान् सर्वान् सो यु पिक् अप् एनी पुल्लिङ्गशब्दः लैक् पाठः.
सर्वान् संस्कृते सर्वान् पाठः सम्यक् अस्ति.
सर्वान् पाठान् नो बिकास् इट् इस् द्वितीयाविभक्ति यु हाव् टु स्टिक् वित् द्वितीयाविभक्ति.
ओके संस्कृते करेक्ट् भगिनि रैट् नो भगिनि सर्वान् पाठान् सम्यक् अस्ति.
सम्यक् करोतु
करोति करोतु
बिकास् इफ् यु से अस्ति इट् गोस् टु प्रथमाविभक्ति.
आं भगिनि.
सो इफ् यु चूस् प्रथमाविभक्ति इट् विल् बी लैक् दिस् संस्कृते सर्वे
ओके
पाठाः सम्यक् सन्ति.
ओके भगिनि
बिकास् इट् इस् द्वितीय सर्वान् पाठान् सम्यक् पठन्तु
पठन्तु करोतु
करोतु पठतु लिखतु अथवा पठतु लिखतु करोतु पश्यतु अवगच्छतु संथिङ्ग्. अस्तु धन्यवादः. अस्तु केतकि भगिनि.
There is a श्लोकं नो भगिनि सर्वान् ज्वरान् नाशय नाशय इन्द्राक्षी श्लोकम्.
सर्वान् ज्वर नाशय नाशय यु आर् टेलिङ्ग् गाड् रैट् नाशं
करोतु.
सम्यक् धन्यवादः
भगिनि.
अस्तु
तस्मै शब्द चतुर्थी चतुर्थी स्त्रीलिङ्ग
स्त्रीलिङ्गन
स्त्रीलिङ्ग तस्मै पुल्लिङ्ग
पुल्लिङ्ग तस्मै
सेण्टेन्स् तस्मै गृहे
न तस्मै नो वेन् यु से तस्मै चतुर्थी सो यु हाव् टु मेच् इट् वित् अनदर् पुल्लिङ्ग आर् नपुंसकलिङ्ग.
तस्मै कृते
नो न तस्मै संथिङ्ग् भगिनि
कृते
न तस्य कृते
तस्य कृते अस्ति
तस्य कृते बट् यूस्
तस्मै
यु हाव् टु सेलेक्ट् सम्बडी टु हूम् यु आर् गिविङ्ग् to that I'm sorry to say to that beggar or to that father to that son to that boy
tasmai
tasmai pita
tasmai supposing I'm choosing bhikshuka how will I change the bhikshukah for tasmai
tasmai bhikshukai
bhikshukaya
bhikshuka tasmai bhikshukaya dadati danam dadati
danam dadati aham va athava anya kopi va
saha anya kopi
anya kopi तस्मै भिक्षुकाय सः दानं ददाति अस्तु सम्यक्
तेषां षष्टिविभक्ति बहुवचनं तेषां षष्टि हा तेषां गृहस्य
तेषां किं यु हाव् टु मेच् अगेन् गृहस्य इस् एकवचनं
तेषां गृहस्य सोरि यस् यस् तेषां गृहस्य
तेषां गृहस्य इट् डजन्ट् मेच् खलु इट् हेस् टु मेच् न तेषाम् इस् बहुवचनं गृहस्य इस् एकवचनं
सोरि सोरि तेषां गृह
गृहस्य गृहयोः
गृहाणां तेषां गृहाणां तेषां गृहाणां
सो अत्र वेन् वि यूस् षष्टि बहुवचनम् और् सप्तमी बहुवचनं यु केन् आल्सो यूस् इन् द सेन्स् आफ् अमङ्ग् दोस् इति उदाहरणार्थं पाण्डवानां ज्येष्ठः युधिष्ठिरः पाण्डवेषु ज्येष्ठः युधिष्ठिरः इति एवमेव तेषां गृहाणां You can just use something like Tesham Grihanam Varunaha Samanaha. They all have the same color.
Tesham Grihanam Varunaha Varuna also Shashti?
No. Tesham Grihanam Varunaha Shvetaha Raktaha Atama Kimati.
Varunaha Raktaha.
Raktaha. Uttama. Tesham Grihanam Varunaha Raktaha. Astu. गोपिका भगिनि
आं भगिनि कस्मात् पञ्चमी विभक्ति
आम्
पुल्लिङ्गम्
आम्
नपुंसकलिङ्गम् अपि आगच्छति कस्मात् क्षेत्रात् एषः महान् आगच्छति
सम्यक् अस्तु एतस्य
वचनम् एकवचनम्
एकवचनम्
एतस्य लिङ्गं पुल्लिङ्गं वचनम् एकवचनं विभक्तिः षष्टिविभक्तिः
अस्तु नपुंसकलिङ्गमपि भवति परन्तु
नपुंसकलिङ्गमपि भवति एतस्य पुत्रस्य नाम वल्लभाचार्यः अद्य तस्य जयन्ती अस्ति
एवं वा धन्यवादः
वाक्यम् अहं समर्पयामि
उत्तमम् वल्लभाचार्याय नमः अस्तु धन्यवादः भगिनि अम्ब अस्ति वा अम्ब अस्ति वा वक्तुमिच्छति वा अस्ति वा अस्ति वक्तुमिच्छति वा इति न जानामि अम्ब न वा अस्तु न अस्तु मालति भगिनि वक्तुमिच्छति वा तस्यै स्त्रीलिङ्ग चतुर्थीविभक्ति
I think I will pass.
You will pass. Astu.
I will still I'll observe and I'm listening.
Astu bhagini. Chintam astu. Amba vaktum icchati chet aham sahayam karomi. Na iti mani. Astu. Sagari bhagini. Astu.
Tasmai bhagini.
तस्यै भगिनि मुद्रणदोषः अस्ति तस्यै
ओ तस्यै तस्य इत्युक्ते श्रीलिङ्गम् एकवचनं चतुर्थी
चतुर्थी सम्यक् अस्तु वदतु
तस्यै बालिकायै फलं ददामि
सम्यक् अस्तु तासु
तासु श्रीलिङ्गं बहुवचनं सप्तमी
विभक्ति सम्यक् सप्तमी
तासु महिलासु सम्यक् गुणाः सन्ति
अस्तु तासु महिलासु सम्यक् गुणाः सन्ति उत्तमगुणाः सन्ति अस्तु सम्यक् अत्र स्थगयामः खलु समयः अभवत् अस्तु शान्तिमन्त्रम् उक्त्वा समापयामः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्ति
धन्यवादः भगिनी
धन्यवादः भगिनी
धन्यवादः
धन्यवादः भगिनी
धन्यवादः भगिनी
धन्यवादः